सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. विना वेदं विना गीतं विना रामायणीं कथां विना कविं कालिदासं भारतं भारतं नहि. इत्युक्ते वेदं विना, भगवद्गीतां विना, रामायणकथां विना, कविं कालिदासं विना भारतदेशः भारतदेशः इति वक्तुम् अयोग्यः अथवा अनुचितः इति वक्तुं न शक्नुमः. अस्मिन् श्लोके भारत इति पदम् उक्तमस्ति, परन्तु तस्य अर्थः कः इति एकवारं चिन्तनं कुर्मः. अत्र अस्माकं भूमेः नाम भारतदेशः, परन्तु किमर्थम् अस्माकं ऋषयः तादृशरीत्या नामकरणं कृतवन्तः इति अस्माभिः चिन्तनीयम्. भारत इत्यस्मिन् शब्दे प्रत्येकस्य अक्षरस्य अर्थः ज्ञातव्यः. भा इत्युक्ते प्रकाशः, कान्तिः अथवा दीप्तिः. वयं जानीमः अत्र शोभा भगिनी अस्ति. भा इत्युक्ते कान्तिः, शोभा इत्युक्ते कान्तिः एव इति पदं तथा एव आगतं. परन्तु अत्र शब्दकोशे भा इत्युक्ते बहवः अर्थाः सन्ति, परन्तु मुख्य अर्थः तु ज्ञानम्. भा इत्युक्ते ज्ञानं, रत इत्युक्ते आसक्तिः अथवा इच्छा, आनन्दः. अत्र रत इति पदं रं धातुतः आगतं, रं धातुतः रत, मन् धातुतः मत, क्रान्तरूपाणि. रं धातुतः एव रमते इति पदमागतं, तथा एव अत्र रामः इति पदं वयं जानीमः, तथा एव राम इति पदमपि पदमागतं रं धातुतः. परन्तु अत्र भारत इत्युक्ते ये जनाः ज्ञाने सदा निरताः अथवा येषाम् आसक्तिः सर्वदा ज्ञाने अस्ति, ये भासिरताः ते एव भारतीयाः. इत्युक्ते भारतीयाः इत्युक्ते ते सर्वे सदा जिज्ञासवः भूत्वा सम्पूर्णरीत्या ज्ञातुमिच्छन्ति, परन्तु किं ज्ञातव्यम् इति अपि चिन्तनीयं. किं ज्ञातव्यं तदपि अस्माकं ऋषयः पूर्वमेव उक्तवन्तः. वेदं, भगवद्गीता, रामायणं, कालिदासेन विरचितानि काव्यानि ज्ञातव्यानि. तदर्थं संस्कृतभाषायाः अवगमनम् आवश्यकम्. अतः वयं सर्वे अत्र मिलित्वा किञ्चित् संस्कृतभाषायाः अवगमनार्थं प्रयत्नं कुर्मः. उत्तमम्. अनन्तरम् अत्र कथायाः गते सप्ताहे वयं भूतकालरूपाणां विषये चर्चितवन्तः, किञ्चित् पठितवन्तः च. अत्र भूतकालरूपाणि अपि च बलवान् कः इति कथाम् अपि पठितवन्तः. तस्मिन् विषये किञ्चित् कालं चिन्तनं कृत्वा अनन्तरम् अभ्यासपुस्तकं प्रति गच्छेम. अधुना गृहकार्यं. भूमा भगिनी श्रावयतु वाक्यानि कथायाः नीतेः विषये.
आं भगिनि. याज्ञवल्क्यः तं मूषिकं कन्यकां परिवर्तनं कृत्वा स्वपुत्र्या एव पालितवान्, परन्तु सा मूषिकः अन्तःकरणे या मनसि मूषिक एव भूतवती. यदा पर्वतः मूषिकं विवाहार्थं सूचितवान् तदा सा तं मूषिकम् आनन्देन स्वीकृतवती. वयं केऽपि प्रकारेण प्रयत्नं कुर्मः चेदपि नराणां स्वबुद्ध्या स्वभाव अस्माकं स्वभावमेव स्फुरन्ति. तावदेव.
उत्तमम्. उत्तमम्. इत्युक्ते अत्र केवलं तस्यां मूषिकां बालिकां कृतवान् इत्युक्ते तस्यां पूर्वतनवासनाः आसन् तदर्थमेव सा पुनः मूषकम् एव परिणेतुम् इष्टवती इत्युक्ते वयं पूर्वजन्मवासनाभिः अन्ततो गत्वा वासनाः तैः एव वयं कार्यं कुर्मः परन्तु वासनाः काः इत्युक्ते वयं तत्तु अन्यविषयः अनन्तरं
प्राधान्यम्
प्राधान्यता अस्ति उत्तमम् उत्तमम् अनन्तरम् अत्र उषा भगिनी भवती श्रावयतु
नमस्ते भगिनि नमस्ते भगिनि अहं विलम्बेन आगतवती क्षम्यतां
नमस्ते भगिनि स्वागतम् उषा भगिनि
सजातीयाः एव युज्यन्ते लैक् द बर्त् वाट् डु यु काल् दट् जन्म like in Tamil do you understand Tamil like a
yeah priyam priyam
yeah inam inathodu serum like that
astu
sajatiya yujyante and one more is annesham upari asmakam adhikarah nasti don't try to force anybody like the way you want them to act let them be by themselves don't try to change them
astu ichite parivartanam kartum asadhyam eva iti bhavati uktavati
ambai
parivartanam parivartanam tavat sadhyam tavat sulabham nasti parantu balye kale parivartanam kartum chamaste kinchit sadhyam sulabham bhavati parantu tatha bhavati uktavati samyak eva उत्तमम् इत्युक्ते साधारणतया अत्र जनाः तेषां संस्कारान् अनुसृत्य एव चरन्ति संस्कारस्य परिवर्तनं कर्तुं तावत् सुलभः नास्ति परिवर्तनं संस्कारान् अनुसृत्य एव जनाः चरन्ति श्रावयतु भगिनि भवती वदतु अग्रिमम् उत्तमं शोभा भगिनी भवती श्रावयतु
आं भगिनि एतस्यां कथायां बलवान् संस्काराणि सन्ति यज्ञवल्क्यः एकः ऋषिः सर्वं त्यक्तवान् लोकहितम् एव तस्य उद्देशः सः एकः गुरुः अतः एतस्यां कथायां मूषिकां वयं मानवजातिम् इति द्रष्टुं शक्नुमः तादृशा मूषिका मायातः क्षणकालं मुक्तिं प्राप्त्वा गुरोः पादे पतितम् अस्ति अनुकम्पेन गुरुः तस्य उद्धारणार्थं ज्ञानोपदेशं करोति सूर्यः आत्मकारकः तेन सह विवाहम् इत्युक्ते आत्मोद्धारं परन्तु मूषिका यद्यपि गुरुणा आध्यात्मिका शिक्षणं प्राप्तिं कृतवती तथापि आत्मोद्धारं न इच्छति किमपि उन्नतम् आकाङ्क्षां न अपेक्षति संसारे एव जीवितुम् इच्छति संस्काराणां बलानि इति अस्ति तेषाम् उपरि जयं साध्यम् एव परन्तु स्वयं प्रयत्नेन
उत्तमम् उत्तमम् उत्तमं
सम्यक् सम्यक् भगिनि
धन्यवादः
उत्तमं भगिनि
सम्यक् शोभा
धन्यवादः
वंशीसुधा भगिनी भवती श्रावयतु
भगिनि, बलवान् बलवान् कः, कथायां नीतिः का इति अहं पश्यामि. महर्षि करुणया मूषिकां कन्यायाम् इव परिवर्तनं कृतवान्, परन्तु अन्ते कन्या तस्याः निजगुणः न त्यक्तवती इति कारणेन सा मूषिकाम् एव परिणीतवती. भगवतः सृष्टिः यथा भवति तथा एव अस्मान् स्वीकरणीयम्. जन्मनः निजगुणः आसीत्, तस्य कदापि परिवर्तनं न भवति. तावदेव भगिनि.
उत्तमं, सुन्दरं, सुन्दराणि वाक्यानि.
धन्यवादः. धन्यवादः.
उत्तमं भगिनि, तावदेव. अत्र
भगिनि एकः प्रश्नः, स्वीकरणीयं या स्वीकरणीयः, किं स्वीकरणीयम् इति पदम् अस्ति भगिनि?
स्वीकरणीयम् अस्ति, स्वीकरणीयः इत्यपि अस्ति.
ओ, अङ्गीकरणीयः आर् अङ्गीकरणीयम् इति द्वयोः द्वौ पदे अपि अस्ति.
अतः इत्युक्ते अत्र अत्र विशेषणत्वेन उपयोगं, विषयः स्वीकरणीयः,
स्वीकरणीयः
कर्मणि प्रयोगे कर्म अस्माभिः अस्माभिः उत्तमः विषयः स्वीकरणीयः तदपि वक्तुं शक्नुमः. अत्र इतोपि विषयाः सन्ति यदि वयं चिन्तनं कुर्मः चेत्. अत्र यदि सूर्यं पृष्टवान्, ऋषिः सूर्यं पृष्टवान् तदा सूर्यः वदति मम अपेक्षया बलवान् वायुः बलवान् इति उक्तवान्, परन्तु इदानीन्तनकाले तादृशचिन्तनं न दृश्यते. यदि के वयम् अन्यं पृच्छामश्चेत् अहमेव बलवान्, अहमेव उत्तमः इति वदन्ति जनाः, परन्तु अत्र पश्यन्तु सूर्यः वदति मम अपेक्षया वायुः उत्तमः इति उक्तवान्. तादृशचिन्तनं इदानीन्तनकाले न दृश्यते. तदेकः विषयः. अपि च तथा तथा सहनं, मनसि सहनम् अस्ति चेत् साधारणतया स्पर्धा न जायते. देर् वोण्ट् बि एनि काम्पिटिशन्. तथा एव अत्र मनसि ऋजुत्वम् अथवा आर्जवम् अथवा साधुता, सरलता भवेत् चेत् जनाः न केवलम् उन्नताः, उत्तमाः अपि भवितुमर्हन्ति. तथा एव अत्र अन्यः विषयः अपि अस्ति. अत्र एकैकस्य व्यक्तेः दौर्बल्यम् अथवा दुर्बलता अपि अस्ति. अत्र सूर्यः सूर्यं मेघाः सूर्यम् आच्छादयन्ति इत्युक्ते अत्र एकैकस्य व्यक्तेः दौर्बल्यम् इत्युक्ते देर् इस् सम् वीक्नेस् इन् एव्रिबडि. तत्तु अस्माभिः अवगन्तव्यं, परन्तु केवलं परमात्मा एव सर्वज्ञः. हि इस् द ओन्लि वन् हू हेज़् एव्रिथिङ्ग्. तदर्थमेव अत्र अहमपि श्रुतवती एकं श्लोकम्. अत्र विष्णुपुराणे एकः श्लोकः अस्ति, भगवान् इत्युक्ते कः इत्युक्ते तत्र ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसश्रियः ज्ञानवैराग्ययोश्चैव षण्णां भग इतीर्णा इत्युक्ते यस्मिन् पार्श्वे एतानि सर्वाणि लक्षणानि सन्ति सः एव भगवान्. लक्षणानि कानि? ऐश्वर्यः ऐश्वर्यस्य समग्रस्य वीर्यस्य यशस् श्रियः ज्ञानं वैराग्यम् एतानि सर्वाणि लक्षणानि भगवति एव द्रष्टुं शक्नुमः. वयं सर्वे अल्पज्ञाः अथवा परितज्ञाः तथा वक्तुं शक्नुमः. अनन्तरम् अत्र अन्यविषयः कः इत्युक्ते कस्य अपेक्षया कः उन्नतः इत्युक्ते तत्र तुलना अस्ति. तुलना इत्युक्ते कम्पेरिजन्. तुलनां कुर्मः चेत् साधारणतया किं भवति? ईर्ष्या वा अथवा असूया वा मनसि एतादृशविकाराः मनसि जायन्ते. तदा तेन किं भवति, तैः विकारैः मनः कलुषितं भवति. यदि मनः कलुषितं न भवति चेत् तदा तुलनां कुर्मः चेत् न कोऽपि समस्या. कस्य अपेक्षया कः उन्नतः, तदा केवलं तथा चिन्तनं चर्चां कुर्मः चेत् किमपि न भवति, केवलं प्रयत्नः एव करणीयः अत्र. तथा एव एकैकस्मिन् क्षेत्रे उत्तमः प्रसिद्धः भवितुम् उद्यमं करणीयः. इत्युक्ते अत्र उद्यमः इत्युक्ते एफर्ट् अत्र. तथा बहून् विषयान् ज्ञातुं शक्नुमः अत्र. उत्तमम्. अनन्तरम् अत्र अद्य प्रथमं करपत्रम् अत्र अस्धातोः विषये किञ्चित् चिन्तनं कुर्मः. अत्र भूमा भगिनी भवती पठतु अत्र प्रथमं करपत्रं दृष्ट्वा अत्र किं दत्तमस्ति.
भुवि अदादिः परस्मैपदी सेट् अकर्मकः अदित् लेट् लकारः अस्ति स्तः सन्ति असि स्थः स्थ अस्मि स्वः स्मः.
उत्तमं. भवती ज्ञातवती वा, भवती जानाति वा एतानि वाक्यानि, एतानि पदानि?
आं भगिनि.
उत्तमम्. अत्र अत्र उपरि कानिचन पदानि सन्ति. अत्र धातुः अस्ति अस् धातुः, परन्तु उपदेशावस्था इत्युक्ते पाणिनेः धातुपाठे तस्य रूपम् अस्ति असौ रूपं, पूर्वरूपम्. उपदेशावस्था इति वदामः, उपदेशावस्थायां तस्य रूपमस्ति असौ, परन्तु लौकिकधातुः अस्ति अस्. अत्र वयं जानीमः एव अत्र संस्कृतभाषायाम् उपद्विसहस्रं धातवः सन्ति, ते सर्वेपि दशसु गणेषु विभक्ताः सन्ति. अत्र गणस्य नाम दत्तमस्ति अस् धातुः अदादिगणे अस्ति. अदादिगणः, भुवादिगणः, तनादिगणः, जुहोत्यादिगणः, तथा दशगणाः सन्ति. अत्र अस् धातुः अदादिगणे अस्ति. तथा एव अत्र द्वितीयं पदमस्ति परस्मैपदी. पदानि त्रिप्रकारकाणि, परस्मैपदिनः, आत्मनेपदिनः, उभयपदिनः. अत्र अस् धातुः परस्मैपदी, अपि च क्रियापदं परस्मैपदी. इत्युक्ते अत्र धातुः परस्मैपदी धातुः. केचन धातवः परस्मैपदिनः, केचन आत्मनेपदिनः, केचन उभयपदिनः. उभयपदी धातुं पश्यामश्चेत् अत्र कृ धातुः करोति, कुरुते, रूपद्वयमस्ति. तथा एव पचति, पचते, रूपद्वयमस्ति, तत्रापि उभयपदी इति कृत्वा. अनन्तरम् अत्र वयं जानीमः एव आत्मनेपदिनः इत्युक्ते प्रकाशते, शोभते, वर्तते, वन्दते, एतानि आत्मनेपदिनः. अपि च अत्र सेट् सेट् इति दत्तमस्ति. सेट् इत्युक्ते सा इट् यस्य सः इति वदामः. इट् इत्युक्ते इडागमः भवति. इत्युक्ते तत्रापि तस्य अर्थः कः इत्युक्ते सेटः, केचन धातवः सेटः सन्ति, केचन धातवः अनिटः सन्ति, केचन वेटः सन्ति. वेटः इत्युक्ते वा इट्, तत्र इडागमः भवितुमर्हति कदा भवितुमर्हति यदा कदा नापि इत्युक्ते विकल्पेन भवति. केचन केषुचित् धातुषु इडागमः विकल्पेन भवति, परन्तु केषुचित् धातुषु इडागमः सर्वदा भवति, केषुचित् न कदापि भवति तथा. परन्तु अत्र अस् धातुः सेट् धातुः. अनन्तरम् अकर्मकधातुः इति वयं जानीमः. अकर्मकः इत्युक्ते अत्र कर्मपदं न स्वीकरोति. भगिनी एकवारम् एकं वाक्यं वदतु अस् अस्ति अथवा अस् धातुं योजयित्वा, अस्ति योजयित्वा.
तत्र एकं पुस्तकम् अस्ति
तावदेव तत्र तस्मिन् वाक्ये कर्मपदं नास्ति अस् धातुः अतः अकर्मकः अनन्तरम् अत्र अदित् इति पदमस्ति तस्मिन् विषये अहं न सम्यक् न जानामि ज्ञात्वा वदामि अनन्तरम् अत्र नव रूपाणि दत्तानि अस् धातोः भवती कर्तुं शक्नोति चेत् नववाक्यानि लघुवाक्यानि श्रावयतु
सः गृहे अस्ति द्वौ बालकौ क्रीडाङ्गणे स्तः जनाः जनाः उद्यानवने सन्ति
उत्तमं
त्वं ब्रह्मोऽस्मि त्वं पुरुषः असि
पुरुषः असि तत्त्वमसि तत्त्वमसि
तत्त्वमसि
तत्र तत्त्वम् असि यथा वाक्यं रचयामश्चेत् त्वं तत् असि
त्वम् असि असि
त्वम् असि तत् तत् किं वयं न जानीमः तत्र वदतु
युवां बालकौ स्तः यूयं गृहे स्थ अस्मि अहं तत्त्वमसि अहं ब्रह्मोऽस्मि
उत्तमं
श्वः आवां महिले स्वः स्मः वयं बालिका छात्राः स्मः
उत्तमं भगिनि उत्तमं धन्यवादः
धन्यवादः
तावद् अनन्तरम् अत्र उषा भगिनी भवती वदतु अहम् एकं कांश्चन प्रश्नान् पृच्छामि एतस्मिन्नेव विषये अत्र अधुना अहं महिला अस्मि परन्तु अथवा प्रौढा अस्मि परन्तु पूर्वम् अहं बालिका आसम् अधुना अहं छात्रा अस्मि पूर्वमपि अहं छात्रा आसम् अस्माकं विषयः अस्ति आसम् आस्म आसीत् आसन् इत्युक्ते अस् धातोः भूतकालरूपाणां विषये अधुना अद्य वयं किञ्चित् चिन्तनं कुर्मः भगिनी वदतु अद्य अत्र एकः महावृक्षः आसीत् पूर्वम् अस्ति अत्र एकः महावृक्षः अस्ति परन्तु पूर्वं तस्मिन् स्थाने किम् आसीत्
वृक्षः आसीत्
वृक्षस्य स्थाने
वृक्षस्य स्थाने
किं किं इत्युक्ते अहं किं वदामि इत्युक्ते अत्र वृक्षस्य स्थाने तस्मिन् स्थाने सस्यम् आसीत् सस्यस्य स्थाने तस्मात् पूर्वं किम् आसीत्
बीजम् आसीत्
उत्तमं तावदेव इत्युक्ते अत्र अहं सस्यम् अङ्कुरतः आगतम् इत्युक्ते बीजात् सस्यात् पूर्वम् अङ्कुरः अस्ति तस्मात् पूर्वं बीजः अस्ति तथा एव अत्र एकः अत्र एकः वृद्धः अस्ति पूर्वं किम् आसीत्
वृद्धः लैक् बाल
किमपि किमपि वदतु
बालः
बालः आसीत् तावदेव उत्तमम् अनन्तरं वयं जानीमः गौतमबुद्धः गौतमबुद्धः पूर्वं कः आसीत् किञ्चित् ऊहं करोतु, किमपि अत्र अत्र सत्यं वा असत्यं वा इति कोऽपि नास्ति, केवलम् अभ्यासार्थं कुर्मः.
गौतमपुत्रः पूर्वं शिशुः आसीत्.
गौतमबुद्धः.
गौतमबुद्धः पूर्वं शिशुः आसीत्.
शिशुः आसीत् इत्युक्ते अत्र अहं चिन्तितवती राजकुमारः आसीत्. उत्तमं, तावदेव. अनन्तरम् अत्र अत्र यदि वृद्धं पश्यामश्चेत् वृद्धः साधारणतया चिन्तयति, कथं चिन्तयति, अहं पूर्वं बालकः आसम्, अहं पूर्वं कार्यं कृतवान् आसीत्, अथवा अहं कार्यालयं गतवान् आसीत्, तथा सः चिन्तयति वृद्धः. अत्र वृक्षः अस्ति चेत् वृक्षः पूर्वम् अङ्कुरः आसीत्, वृद्धः युवकः आसीत् वृद्धः. तथा एव अहं पदं वदामि, भवती पूर्वं किम् आसीत् इति वदतु. अत्र एकः धनिकः अस्ति अधुना, पूर्वं कः आसीत्?
पूर्वं निर्धनिकः आसीत्.
निर्धनिकः आसीत्. अत्र एकः पण्डितः अस्ति, सः पूर्वं?
पूर्वं पण्डितः मूर्खः आसीत्.
आम् इत्युक्ते आम् किमपि अत्र अत्र सत्यं वा न असत्यं वा इति न कोऽपि प्रश्नः नास्ति, समस्या नास्ति. इत्युक्ते अद्य पण्डितः अस्ति परन्तु पूर्वं मन्दः अथवा छात्रः आसीत्, किं तथा वक्तुं शक्नुमः?
सः छात्रः आसीत् पूर्वं, छात्रः
आसीत्. अनन्तरम् अद्य एकः स्थूलः पुरुषः अस्ति, पूर्वं कः आसीत्?
पूर्वं स्थूलः फ्याट्, पूर्वः थिन् लैक्
तत्र विरुद्धार्थकपदं इच्छामि. अत्र स्थूलः इत्यस्य विरुद्धार्थकपदं किं भवति? कृशः. कृशः तदेव वाक्यं वदतु.
पूर्वं कृशः
सः कृशः आसीत्.
कृशः इत्युक्ते किं भगिनि?
स्थूलः इत्युक्ते फ्याट्, कृशः इत्युक्ते कृशः, कृशः इत्युक्ते लीन्
आसीत्. भगिनि वयम् अस्थूलं वक्तुं शक्नुमः किम्? तत्पदम् अस्ति वा
अस्थूलं? न भगिनि, अहं न श्रुतवती.
आम्
कृशः एव स्थूल स्थूलपदस्य विरुद्धार्थकपदं कृशः एव तथा अहं चिन्तयामि, परन्तु दृष्ट्वा वदामि.
आं भगिनि
उत्तमम्. अधुना एकः पुरुषः शान्तः अस्ति, पूर्वं सः कथमासीत्?
पूर्वः मन्दं, नो नाट् मन्दं, पूर्वः
शान्तः. शान्तः इति पदस्य विरुद्धार्थकपदं किं भवति?
अशान्तः आसीत्. आर् कोप कोप
वृद्धं
क्रूरः. क्रूरः
पूर्वं क्रूरः आसीत्.
क्रूरः आसीत्. उत्तमम्. अद्य एका महिला सुन्दरी अस्ति, सा पूर्वं कथम् आसीत्?
महिला आल्वेस् सुन्दरम्
आसीत्. उत्तमम्. तथा एव एकं वृद्धं पश्यामश्चेत् अधुना तस्य श्वेतकेशाः सन्ति, पूर्वं
कृष्ण
पूर्वं वदतु
पूर्वं कृष्णकेशः आसीत्,
केशाः अत्र पश्यतु भगिनि, किमर्थं केशः इति न वदामः, केशाः एव बहुवचने.
पूर्वं कृष्णकेशाः आसीत्,
अत्र बहुवचने वक्तव्यं,
बहुवचने पूर्वं केशः केशाः पूर्वं कृष्णकेशाः आसीत्.
अत्र आसीत् पदस्य बहुवचन रूपं वक्तव्यम्.
आसम् आसीत्
आसन्
आसन्
आसन् इत्युक्ते अधुना श्वेतकेशाः सन्ति, पूर्वं कृष्णकेशाः आसन्
आसन्
आसन् उत्तमं तथा एव. अधुना तस्य दन्ताः न सन्ति, पूर्वं
दन्ताः न सन्ति, पूर्वं दन्ताः सन्ति,
दन्ताः
आसन्
आसन् उत्तमम् उत्तमं तथा एव. यदि एकं वृक्षं पश्यामश्चेत् तत्र अधुना फलानि पक्वानि सन्ति, पूर्वं
पूर्वं फलानि न पक्वानि आसन्
न पक्वानि आसन् अपक्वानि आसन् अधुना अपक्वानि वक्तुं शक्नुमः अत्र
अपक्तुं न आसन्
अपक्वानि आसन् उत्तमम्. इदानीन्तनकाले यानानि सन्ति, परन्तु पूर्वं किम् आसन्?
पूर्वाणि लैक् घोडागाडि अश्व
शकटाः
अश्व शटका
शकटः शकटाः
शकटाः यानानि नाट् यानानि शटकाः आसन्
आसन् उत्तमम्. अद्य गुरुवासरः, ह्यः कः वासरः आसीत्?
इह बुधवारः आसन्.
परह्यः कः वासरः आसीत्? परह्यः किमर्थमत्र अत्र भूतकालरूपाणि वयं पठामः, अधुना अस्माकं विषयः अस्ति भूतकालरूपाणि, अतः परह्यः
मङ्गलवारः मङ्गलवारः आसीत्
उत्तमम्. प्रपरह्यः कः वासरः आसीत्?
प्रपरह्यः सोमवासरः आसीत्
सोमवासरः आसीत् उत्तमम्. अनन्तरम् अत्र गङ्गानदी भारतदेशे अत्र किं वक्तव्यं, भारतदेशे अस्ति इति वदामः वा आसीत् इति वदामः वा?
अस्ति स्टिल् दे
अस्ति उत्तमम् उत्तमम्. अनन्तरं सुभाष्चन्द्रबोस् देशभक्तः
आसीत्
आसीत् उत्तमम्. काश्यां विश्वनाथमन्दिरम्
अस्ति
अस्ति उत्तमम्. अनन्तरं विवेकानन्दस्य नाम नरेन्द्रः इति
आसीत्
आसीत् उत्तमम्. वाराणसी उत्तरप्रदेशे
अस्ति
अस्ति इदानीमपि अस्ति
इदानीमपि
उत्तमम् उत्तमं भगिनि तावदेव. अनन्तरं धन्यवादः. शोभा भगिनी भवती करोतु, अत्र द्वितीयं करपत्रमस्ति, द्वितीयं करपत्रम् अत्र पदानि सन्ति, केवलम् एकवारं पठामः द्वितीयं करपत्रं पठतु.
लङ् लकारे अस् पदानि आसीत् आस्ताम् आसन् आसीः आस्तम् आस्त आस् आसम् आस्व आस्म
इत्युक्ते अस्मिन् करपत्रे नवरूपाणि दत्तानि, परन्तु अस्माकम् अभ्यासपुस्तके केवलं प्रथमपुरुष एकवचनं बहुवचनं अपि च उत्तमपुरुष एकवचनं बहुवचनरूपाणि एव दत्तानि, परन्तु अस्मिन् करपत्रे नवरूपाणि अग्रे गत्वा नवरूपाणि ज्ञातव्यानि अस्माभिः. अनन्तरम् अत्र इदानीं पर्यन्तं वयम् एतेषां रूपाणां विषये किञ्चित् चिन्तनं कृतवन्तः. अधुना अभ्यासपुस्तके किम् अस्ति इति एकवारं पश्येम. भवती एव पठतु 11.2 अत्र नवत्रिंशत्तमे पुटे.
11.2 वर्तमानकालः अपि भूतकालः. वर्तमानकाले अस्ति सन्ति अस्मि स्मः. भूतकाले आसीत् आसन् आसम् आस्म.
उत्तमम्. अत्र केवलं चत्वारि रूपाणि एव दत्तानि. तस्य अनन्तरं तस्मात् परम् अत्र मित्रयोः सम्भाषणम् अस्ति. मित्रयोः सम्भाषणं किं तत्रापि तस्मिन् सम्भाषणे आसीत् आसम् आस्म एतेषां पदानाम् उपयोगं कृत्वा अत्र एकं सम्भाषणं रचितमस्ति. भवती पठतु अत्र सम्भाषणं.
एतत् सम्भाषणं पठतु. रङ्गनाथ, ह्यः भवान् कुत्र आसीत्? अहं मित्रस्य गृहे आसम्. तत्र कः विशेषः आसीत्? मित्रस्य जन्मदिनम् आसीत्. तत्र जयरामः, अनन्तः, रामकृष्णः इत्यादयः आसन् वा? आम्, सर्वे अपि आसन्. भवतः गृहतः के के तत्र गतवन्तः? वयं सर्वे अपि गतवन्तः आस्म.
उत्तमम्. अत्र किञ्चित् भवन्तः जानन्ति एव, परन्तु किञ्चित् चिन्तनं कुर्मः. एकमेकं वाक्यं स्वीकृत्य अत्र रङ्गनाथ इति पदमस्ति. विभक्तिः का भगिनी वदतु?
रङ्गनाथ प्रथमविभक्ति एव. सम्बोधनम्.
उत्तमम्. ह्यः भवान् कुत्र आसीत्? एतत् वाक्यं कस्मिन् अर्थे अस्ति इत्युक्ते अत्र भूतकालार्थे अस्ति. ह्यः भवान् कुत्र आसीत्? एतदेव वाक्यं वर्तमानकाले वदतु.
अद्य भवान् कुत्र अस्ति?
उत्तमम्. अनन्तरम् अत्र भूधातोः अत्र इदानीं पर्यन्तं वयम् अस् धातोः अस्ति आसीत् जानीमः, परन्तु अस् धातोः भविष्यत्कालरूपम् अस्ति भविष्यति. इत्युक्ते अत्र अस् धातोः अपि च भूधातोः भविष्यत्कालरूपं समानं भविष्यति एव अत्र. अनन्तरम् अत्र अहं मित्रस्य गृहे आसम्. अत्र वाक्यं सरलमेव. अत्र तत्र कः विशेषः आसीत्? कः विशेषः आसीत्? तावदेव. अनन्तरम् अत्र इत्यादयः इति पदमस्ति. अत्र जयरामः, अनन्तः, रामकृष्णः इत्यादयः. अत्र इत्यादयः अत्र सन्धिः अस्ति, वदति वा?
इति अस्ति, इति आदि इत्यादि, इत्यादयः तस्य विशेषण अस्ति वा भगिनि? इत्यादि पदस्य
अत्र किमस्ति इत्युक्ते संस्कृत अत्र इकारान्तपदमस्ति. आदिः आदिः आदि आदयः आदयः इत्युक्ते अत्र मुनिः शब्दवत् आदिः आदि आदयः. अत्र बहुवचने आदयः इति पदमस्ति. इति योगः आदयः इत्यादयः अत्र यण् सन्धिः अस्ति. उत्तमम्. अनन्तरम् अत्र सर्वे अपि आसन्. आम्, सर्वे अपि आसन्. आम्, भवतः गृहतः के के तत्र गतवन्तः? अत्र किमस्ति अस्मिन् वाक्ये? कोऽपि प्रश्नः अस्ति वा भगिनि अत्र?
प्रश्नः अस्ति. भवन्तः गृहतः के के जनाः तत्र गतवन्तः? के के आ, Did you mean, do I have any questions, Bhagini?
Aam, Bhagini. Atra nasti. Samyak.
Nasti, Bhagini.
Bhagini, Bhagini, ekha prashna. Ke iti padam, dve iti, dvau iti varam ki madhu saha iti. Ke iti ekam samyak keva nabhu.
एकमपि सम्यक् एव अत्र किम् उत्तमः उत्तमः प्रश्नः गृहतः के तत्र गतवन्तः के द्विवारं किमर्थम् अत्र प्रश्नः समीचीनः परन्तु उत्तरं न जानामि केवलं साधारणसम्भाषणं
इन् कलोकियल् इट् हेपन्स् भगिनि
के तत्र गतवन्तः
उत्तमं केक्रप्ले
उत्तमं
अनन्तरम् अत्र वयं सर्वे अपि गतवन्तः आस्म अत्र आस्म इति पदम् अत्र भूतकालार्थे उत्तमपुरुषे बहुवचनरूपं केवलं किञ्चित् अभ्यासः अपेक्षितः रूपाणां विषये रूपाणि वयं जानीमः परन्तु वाक्ये योजयित्वा वयं वदामश्चेदेव सम्यक् अभ्यासः भवति नो चेत् सम्यक् अभ्यासः अपेक्षितः तदेव अत्र अत्र रक्तवर्णैः अक्षरैः एकं वाक्यमस्ति तदपि पठतु भगिनि तत्र किं कर्तव्यम्
एतस्मिन् सम्भाषणे एक द्वे त्रीणि चत्वारि पञ्च इत्यत्र सुरेशस्य गोविन्दः मोहनः राजीवः इति शब्दपरिवर्तनं कृत्वा पुनः सम्भाषणं पठतु
अत्र अहम् एकं वक्तुम् इच्छामि अत्र भवतः गृहतः इति वाक्यमस्ति अत्र गृहतः इति पदस्य विभक्तिः का भगिनि
गृहात् पञ्चगृह
उत्तमम् इत्युक्ते वंशीसुधा भगिनी
गृहात् न
गृहतः सन्ति
समानमेव समानमेव
समानम्
भगिनि इत्युक्ते अत्र गृहात् इत्यस्मिन् स्थाने अत्र गृहतः लिखितमस्ति गृहतः इति तत्र तदेव तसिल् प्रयोगः इति वदामः वंशीसुधा भगिनी पृष्टवती तदर्थम् अहं वदामि अत्र गृहतः
भवती लिखतु भगिनि अहं संस्कृते एव लिखतु प्रेषयतु किञ्चित्
अस्तु तदेव अत्र तसिल् प्रयोगः इत्युक्ते पञ्चमी विभक्तेः योजयित्वा वदामः तथा अत्र गृहतः तदर्थमेव अत्र लिखितमस्ति उत्तमम् अनन्तरम् अत्र सूचनानुसारं पुनः एकवारम् एतदेव सम्भाषणं श्रावयतु भगिनि शोभा भगिनी अत्र सूचना का
सूचना इत्यत्र सुरेशस्य गोविन्दः मोहनः राजीवः इति शब्दपरिवर्तनं कृत्वा पुनः सम्भाषणं पठतु प्लुरल् किमस्ति कुत्र एतानि नामानि सन्ति तत्र अन्यनामानि उपयुज्य सम्भाषणं रचयतु
तावदेव इत्युक्ते अत्र सम्भाषणे सङ्ख्याः दत्ताः तेषां स्थाने केवलम् एतेषां नामानि योजयित्वा एतानि नामानि योजयित्वा पुनः एकवारं सम्भाषणं पठतु तदेव दत्तमस्ति पठतु
रङ्गनाथ ह्यः भवान् कुत्र आसीत् अहं एकनिमिषं सुरेशस्य गृहे आसम् तत्र कः विशेषः आसीत् तत्र सुरेश तत् गोविन्दस्य जन्मदिनम् आसीत् तत्र मोहनः राजीवः रामक फैव हूस्
किमपि भगिनि तत्र
राजीवः रामकृष्णः इत्यादयः आसन् आसन् वा आम् सर्वे अपि आसन् शेष
भवतः
भवतः गृहतः के के तत्र गतवन्तः वयं सर्वे अपि गतवन्तः आस्म
उत्तमं तावदेव तदेव अस्माकं कर्तव्यम् अत्र अनन्तरम् अत्र 11.3 भागे धन्यवादः भगिनी वंशीसुधा भगिनी भवती कर्तुम् इच्छति वा अत्र 11.3 भागे किमस्ति अत्र एका कथा अस्ति कथायाः अवगमनम् एकं कार्यम् अपि च अत्र व्याकरणविषयाणां परिशीलनमपि अस्माकं कार्यमस्ति अत्र न केवलं कथायाः अवगमनं व्याकरणविषयानपि किञ्चित् परिशीलयामः
एतां कथां पठतु कश्चित् बालकः अस्ति तस्य नाम सुधीरः एकदा सुधीरः नगरं गच्छति शिरस्त्राणानि क्रीणाति तेषां विक्रयणार्थं ग्रामं गच्छति मार्गे अरण्यम् अस्ति सुधीरः श्रान्तः भवति सः वृक्षस्य अधः उपविशति शिरस्त्रपेटिकां पार्श्वे स्थापयति तत्र एव निद्रां करोति अग्रे पठामि वा भगिनि
तत्र स्थगयतु अत्र एकवारं किञ्चित् चिन्तनं कुर्मः अत्र कश्चित् बालकः अस्ति कश्चित् इति पदं कदा उपयोगं कुर्मः
कालं न सूचयति इति अहं कश्चित् इति किञ्चित् कालम् इति यदा अहं न जानामि कश्चित् कालः इति अहं चिन्तयामि
उत्तमम् उत्तमं तावदेव इत्युक्ते अनिश्चितार्थे अनिश्चितार्थे तस्य कश्चित् इति पदस्य उपयोगं कुर्मः चित् इति पदस्य उपयोगं कुर्मः अनिश्चितार्थे अत्र बालकस्य नाम किं
सुधीरः बालकस्य नाम
सः कुत्र गच्छति
सः क्रीडार्थं नगरं गच्छति
नगरं गच्छति अत्र अस्मिन् वाक्ये कर्मपदं किम्
एकदा सुधीरं नगरं गच्छति इति नगरमेव कर्मपदमस्ति
नगरमेव कर्मपदमस्ति उत्तमम् अत्र पश्यतु बालकः अस्ति अस् धातुः अकर्मकः परन्तु गम् धातुः
गम् धातुः सकर्मकः
सकर्मकः उत्तमं नगरं गत्वा सः किं करोति
नगरं गत्वा शिरस्त्राणानि क्रीणाति
अत्र पश्यतु भगिनि अत्र केवलं शिरस्त्राणि दत्तमस्ति
क्षम्यतां शिरस्त्राणि
इत्युक्ते अत्र शिरस्त्राणि इति पदं बहुवचनरूपम् कथं सः क्रीणाति सः क्रीणाति किं क्रीणाति शिरस्त्राणि क्रीणाति शिरस्त्राणि अत्र
एकवचनं क्रीणाति शिरस्त्राणि क्रीणाति इति क्रियापदम् अपि एकवचने अस्ति शिरस्त्राणि एकवचनमस्ति या बहुवचनमस्ति वा भगिनि
अहं चिन्तयामि शिरस्त्राणि
आं भगिनि अत्र क्रीणन्ति इति पदम् आगच्छन्ति न भगिनि क्रीणन्ति
कथं क्रीणन्ति भवती अत्र शिरस्त्रम् इति पदम् अथवा शिरस्त्राणि इति पदं कर्मपदम् कर्मपदम् अत्र वाक्यमस्ति कर्तरिप्रयोगे अस्ति कः क्रीणाति सुधीरः क्रीणाति इत्युक्ते अस्मिन् वाक्ये सुधीरः इति पदं न दत्तमस्ति परन्तु तत्र अध्यारोपणं कुर्मः इत्युक्ते अत्र सः सुधीरः शिरस्त्राणि क्रीणाति इत्युक्ते क्रीणाति इति पदस्य सम्बन्धः कर्तुः सः कर्त्रा सह एव क्रीणाति इति पदस्य सम्बन्धः अस्ति. इत्युक्ते कर्तरिप्रयोगे क्रियापदस्य सम्बन्धः कर्त्रा सह एव भवति. तदर्थमेव अस्मिन् वाक्ये सुधीरः क्रीणाति. किं क्रीणाति?
शिरस्त्राणि क्रीणाति.
शिरस्त्राणि क्रीणाति. अत्र एकवारं पश्येम. अत्र क्रीणाति इति पदम् अत्र क्रीणाति यः क्रयणं करोति सः एव क्रेता. यः विक्रयणं करोति सः एव विक्रेता. अत्र क्रेता विक्रेता एतानि पदानि ऋकारान्तपदानि. यथा वयं जानीमः यथा पिता माता तथा क्रेता इति पदं क्रेता विक्रेता. तत्र प्रातिपदिकं रूपमस्ति विक्रेतृ. मूलरूपं विक्रेतृ विक्रेतृ अथवा क्रेतृ तत्र मूलरूपमस्ति. परन्तु प्रथमाविभक्तिरूपं विक्रेता. अत्र धातुः अस्ति डुक्रीन् धातु. डुक्रीन् पर मूलधातुः डुक्रीन् परन्तु लौकिकधातुः क्री.
क्री
धातुतः अत्र क्रयणं विक्रयणम् एतानि ल्युडन्तपदानि. क्रीणाति विक्रीणाति. अत्र धातुः अस्ति उभयपदी धातुः. उभयपदी धातुः इति कृत्वा अत्र रूपद्वयं सम्भवति. क्रीणाति क्रीणीते. इत्युक्ते अत्र वयं जानीमः करोति कुरुते तथा एव अत्रापि क्रीणाति क्री धातुः उभयपदी धातुः. अतः क्रीणाति क्रीणीते. यथा वयं भवती वदतु जानाति इति धातुं स्वीकृत्य वदतु. अत्र जानाति ज्ञाधातुः अपि उभयपदी धातुः.
सः जानाति सः ज्ञा इति आगच्छति या जानाति इति आगच्छति. सः जानाति अहं जानी
अहं किं पृष्टवती इत्युक्ते ज्ञाधातुः अपि उभयपदी. अत्र यथा क्रीणाति क्रीणीते इत्युक्ते अत्र आत्मनेपदिरूपम् अस्ति परस्मैपदिरूपम् अपि अस्ति. तथा एव ज्ञाधातोः आत्मनेपदिरूपं परस्मैपदिरूपं रूपद्वयम् अस्ति. जानाति जानीते
जानीते.
अत्र तथा एव अत्रापि क्रीणाति परन्तु परस्मैपदिरूपं दत्तमस्ति अस्मिन् सम्भाषणे. अनन्तरं किमस्ति अत्र सः क्रयणार्थम् अत्रैव दत्तमस्ति. सः प्रथमतया सः शिरस्त्राणि क्रीणाति तदनन्तरं तेषां विक्रयणार्थं ग्रामं गच्छति. केषां विक्रयणार्थं
शिरस्त्राणि विक्रयणार्थं ग्रामं गच्छति.
ग्रामं गच्छति. उत्तमं. विक्रयणं वयं जानीमः क्रयणं विक्रयणं. परन्तु मार्गे अरण्यमस्ति. सुधीरः श्रान्तः भवति. इत्युक्ते किं भगिनि?
श्रान्तः इति विश्रामः विश्रमति.
अत्र पश्यन्तु श्रान्तः इत्युक्ते कोऽपि वदति वा? भूमा भगिनी वदति वा? उत्तमम्. इत्युक्ते अत्र श्रान्तः इत्युक्ते टायर्ड्. अत्र अहं यथा अहं पूर्वम् उक्तवती अत्र रं धातुतः रमते रत इति रूपाणि आगच्छन्ति. तथा एव श्रं धातुतः श्रान्त इति रूपम् आगच्छति. श्रम् धातुतः श्रान्त कृतान्तरूपं कृतान्तरूपम् आगच्छति. अत्र सुधीरः श्रान्तः. साधारणतया कृतान्तरूपाणि अथवा क्तवत्वन्तरूपाणि साधारणतया वाक्ये विशेषणानि भवन्ति, अपि च भूतकालार्थे तेषाम् उपयोगं कुर्मः. क्तवत्रूपाणां विषये वयं जानीमः, परन्तु अत्र श्रान्तः इति पदमस्ति. श्रान्तः इति कृतान्तरूपं. सुधीरः श्रान्तः. अनन्तरं किम् अभवत्? सः वृक्षस्य अधः उपविशति, तिरस्त्रपेटिकां पार्श्वे स्थापयति, तत्र एव निद्रां करोति. अग्रिमं वाक्यं पठतु भगिनि, अग्रे पठतु.
तत्र केचन वानराः सन्ति. एकः वानरः सुधीरस्य समीपम् आगच्छति. सः पेटिकां पश्यति, उद्घाटयति, एकं शिरस्त्रं गृह्णाति, शिरसि धारयति, पुनः वृक्षस्य उपरि गच्छति, उपविशति.
अत्र एकं वदामि. अत्र पूर्वस्मिन् वाक्ये तत्र एव निद्रां करोति इति वाक्यमस्ति. अत्र निद्रां करोति इत्यस्मिन् स्थले एकं क्रियापदमस्ति, आत्मनेपदीरूपं. शेते इत्युक्ते तत्र एव निद्रां करोति. तस्मिन् स्थाने सः शेते सः शेते इत्यपि समीचीनम् अत्र. परन्तु शेते इति पदम् आत्मनेपदीरूपम्. परन्तु अत्र धातुः अस्ति शीङ् धातुः. शीङ् धातुतः शेते इति आत्मनेपदीरूपम् आगच्छति. अत्र केचन वानराः सन्ति. अत्रापि केचन वदतु, केचन इत्यस्मिन् विषये.
केचन इत्युक्ते किञ्चित् जनः इत्युक्ते केचन इत्युक्ते अहं गणितं न जानामि. केचन इत्युक्ते गणनं न करणीयम् इति केचन इति उपयोगं करोमि.
उत्तमं तावदेव. इत्युक्ते तत्र कति वानराः सन्ति इति वयं न जानीमः, अतः अनिश्चितार्थे तत्र केचन वानराः सन्ति, परन्तु कति सन्ति इति वयं न जानीमः. अनन्तरम् अत्र एकः वानरः सुधीरस्य समीपम् आगच्छति. सः वानरः पेटिकां पश्यति, अपि च उद्घाटयति. भगिनि अत्र पश्यतु, उद्घाटयति इति पदमस्ति. उद्घाटयति इति पदस्य विरुद्धार्थकपदं किं भवति? अत्र उद्घाटयति इत्युक्ते किं वदतु?
उद्घाटयति इत्युक्ते
ओपेन् तावदेव ओपेन्. परन्तु क्लोस् इति वदामश्चेत् किं वदामः? भूमा भगिनी वदतु, जानाति चेत् कोऽपि वदतु.
न जानामि.
अत्र उद्घाटयति इति पदस्य विरुद्धार्थकपदं पिदधाति.
किं भगिनि?
पिदधाति इत्युक्ते पिदधाति इत्युक्ते अत्र द्वारम् उद्घाटयतु, द्वारं पिदधातु,
पिधानं करोति.
उत्तमं, पिधानं करोति. अत्र सः वानरः पेटिकां पश्यति, अपि च उद्घाटयति. उद्घाट्य किं करोति? एकं शिरस्त्रं गृह्णाति, शिरसि धारयति. भगिनी वदतु, वंशसुधा भगिनी, शिरसि रूपं किम्?
शिरसि इति सकारान्तपदं न जानामि.
सकारान्तपदं सकारान्तपदं विभक्तिः का?
शिरसि इति सप्तमीविभक्ति अस्ति भगिनि.
उत्तमम् उत्तमं. सकारान्तपदं सप्तमीविभक्तिरूपं, परन्तु प्रथमाविभक्तिरूपाणि वदतु.
शिरस् इति पदम्?
हा, शिरस् इति प्रातिपदिकम्.
आम् आं प्रातिपदिकं. शिरसा इति शिरस् न स्मरामि भगिनि. शिरस्
अत्र प्रातिपदिकमस्ति, शिरस् सकारान्तपदम्, परन्तु प्रथमाविभक्तिरूपाणि शिरः
शिरसि,
शिरः शिरः शिरसि शिरांसि
शिरांसि.
यथा मनः मनसि मनांसि. मनः मनसि मनांसि. मनः शब्दस्य सप्तमीरूपम् अपि मनसि
मनसि.
तथा एव अत्र शिरसि धारयति. कुत्र धारयति?
शिरसि धारयति
कः? धारयति
सुबीरः. धारयति
न न
ओ क्षम्यतां वानरः.
वानरः धारयति. किं धारयति?
शिरस्त्राणि धारयति.
शिरस्त्रं धारयति. उत्तमं. तावदेव. अनन्तरं किं करोति?
पुनः वृक्षस्य उपरि गच्छति, उपविशति.
यदि एकः वानरः तदा करोति चेत् अन्ये वानराः किं कुर्वन्ति? वदतु भगिनि. इत्युक्ते ते तु वानराः, न तु नराः. तदनन्तरं किम् अभवत्? पठतु, भवती एव पठतु.
अहं पठामि भगिनि.
पठतु.
अन्ये अपि वानराः एतत् पश्यन्ति, ते अपि शिरस्त्रम् इच्छन्ति, अतः अधः आगच्छन्ति, शिरस्त्राणि धारयन्ति, वृक्षे उपविशन्ति. सुबीरः
उपविशन्ति. अत्र अन्ये अपि वानराः एतत् पश्यन्ति, ते अपि शिरस्त्रम् इच्छन्ति. तदेव इत्युक्ते अत्र अतः ते किं कुर्वन्ति?
अतः अधः आगच्छन्ति, सर्वे अपि शिरस्त्राणि धारयन्ति, पुनः वृक्षे उपविशन्ति.
उत्तमं. तावदेव. अग्रिमपरिच्छेदमपि पठतु.
सुधीरः जागरितः भवति, पुरतः पश्यति, एकम् अपि शिरस्त्रं नास्ति, सः वानरान् पश्यति, शिरस्त्राणि तत्र सन्ति, सः दण्डं दर्शयति, वानराः वृक्षशाखाः दर्शयन्ति, सुधीरः शिलाखण्डं क्षिपति, वानराः फलानि क्षिपन्ति.
अत्र पश्यतु भगिनि, प्रथमं वाक्यमस्ति सुधीरः जागरितः भवति. अस्मिन् वाक्ये सुधीरः जागरितः, तयोर्मध्ये सम्बन्धः कः? उत्तमं. विशेषणविशेष्यभावः अस्ति. इत्युक्ते सुधीरः जागरितः. सुधीरः जागरितः इत्युक्ते सुधीरस्य विशेषणम् एव जागरितः. अत्र जागरितः इति पदं क्तान्तरूपम्, क्तान्तप्रत्ययान्तरूपम्. अत्र धातुः अस्ति जागृ, जागृधातुः, जागृ पद ऋकारान्तपदं नास्ति भगिनि, परन्तु अत्र अहं धातुविषये वदामि. जागृ इति धातु, जागृ इति धातुः अस्ति. जागृ इति पदात् जागर्ति इति क्रियापदम्. अधुना वदतु, सुधीरः जागरितः भवति इति वाक्यमस्ति, क्रियापदं योजयित्वा वदतु, जागर्ति योजयित्वा वदतु.
सुधीरः जागरितः भवति, सुधीरः निद्रां जागर्ति
निद्रातः जागर्ति
जागर्ति आम् आम्
अत्र पश्यन्तु जागृधातुः अकर्मकधातुः अकर्मकधातुः अतः कर्मपदं न सम्भवति सुधीरः जागर्ति
ओ निद्रामिति न उपयोगं करोमि
निद्रातः सुधीरः जागर्ति
जागर्ति
अथवा जागरितः भवति भवत् रूपं योजयित्वा वदतु एतदेव वाक्यं
किं भगिनि
तवत् रूपं योजयित्वा वदतु वयं जानीमः पठितवान् गतवान् तत्
सुधीरः जागरितवान् भवति
अहं चिन्तयामि तथा जागरितवान् जागरितवान् इति भवति इति अहं चिन्तयामि अत्र जागृधातोः विषये अत्र एकं वक्तुमिच्छामि अत्र अत्र जागर्ति भवन्तः श्रुतवन्तः वा एतत् पदं जागर्ति
जागृति श्रुतवती
जागृति अस्तु अत्र भगवद्गीतायाम् एकः श्लोकः अस्ति द्वितीयाध्याये नवषष्टितमं श्लोकं श्लोकः कः इत्युक्ते यानिशा सर्वभूतानां तस्यां जागर्ति संयमी अत्र संयमी इत्युक्ते यस्मिन् इन्द्रियनिग्रहः अस्ति सः योगी किं करोति सर्वदा सर्वभूतानां या निशा अस्ति तस्मिन् समये सः जागर्ति When everybody is really sleeping, that time, the yogi will always stay awake. Parantu kimartham? Kimartham? Shobha Bhagini vadatu.
Tat nidram, sadharana nidram nasti, avidyam asti, ignorance nidram. पुनरेकवारं प्रश्नं पृच्छतु भगिनि
अत्र श्लोकः अस्ति भगवद्गीतायां श्लोकः सर्वे पश्यन्तु तत्र द्वितीयाध्याये नवषष्टितमं श्लोकम् अत्र श्लोकः अस्ति या निशा सर्वभूतानां तस्यां जागर्ति संयमी संयमी इत्युक्ते योगी इत्युक्ते यस्मिन् संयमी इत्युक्ते यस्मिन् इन्द्रियनिग्रहः अस्ति सः एव संयमी संयमी सर्वदा किं करोति सः जागर्ति कदा जागर्ति यदा सर्वे जनाः निद्रां कुर्वन्ति तदा सः जागर्ति इत्युक्ते सर्वभूतानां या निशा अस्ति तदा योगी जागर्ति परन्तु किमर्थम्
एकमर्थम् अस्ति भगिनि सर्वे जनाः बहवः जनाः अविद्येन एव निद्रां करोति मीनिङ्ग् अविद्येया निद्रां करोति इत्युक्ते स्वरूपं स्वस्य रूपं न जानन्ति स्वस्य रूपं अतः सर्वदा निद्राम् एव करोति
सर्वदा निद्रामेव कुर्वन्ति परन्तु योगी जागर्ति सः जागर्ति संयमी जागर्ति अत्र किमर्थं वदामि इत्युक्ते जागरितः इति पदं कृतान्तरूपं परन्तु क्रियापदमस्ति जागर्ति अत्र सुधीरः जागर्ति अत्र जागृधातोः क्रियापदरूपाणि वदामि एकवारम् अत्र किञ्चित् म्यूट् करोमि जागर्ति इति पदस्य रूपाणि जागर्ति एकवचनं प्रथमपुरुष एकवचनं जागर्ति सुधीरः जागर्ति जागर्ति जागृतः जाग्रति कथा भवन्ति रूपाणि. प्रथमाविभक्ति न, प्रथमपुरुष एकवचनरूपाणि जागर्ति जागृतः जाग्रति तथा भवन्ति. अत्र धातुः अस्ति जागृधातुः. उत्तमं भगिनि, वंशसुधा भगिनी अग्रे पठतु.
आं भगिनि, क्षीरः जागरितः भवति. अहं पठामि.
एकवारम् अत्र किं किम् अस्ति इति पश्येम. एकवारम् एकमपि शिरस्त्रं नास्ति. किमर्थं नास्ति?
सर्वे अपि वानराः धारयन्ति.
धारयन्ति. अनन्तरं सः वानरान् पश्यति. अस्मिन् वाक्ये कर्मपदं किं?
वानरान्
उत्तमं. शिरस्त्राणि तत्र सन्ति. कुत्र सन्ति तत्र इत्युक्ते?
तत्र वानराः शिवे सन्ति.
तदा सः किं करोति?
सः दण्डं दर्शयति.
दण्डं दर्शयति. अत्र दर्शयति इति णिजन्तरूपम्. अत्र दृष् धातुतः दर्शयति, परन्तु सामान्यरूपमस्ति पश्यति. दर्शयति चुरादिगणे. उत्तमं. सः दण्डं दर्शयति न तु पश्यति. उत्तमम्. अनन्तरं सः दण्डं दर्शयति तदा वानराः किं कुर्वन्ति?
वानराः वृक्षशाखाः दर्शयन्ति.
वृक्षशाखाः विभक्तिः का? वचनं किं?
वृक्षशाखा इति स्त्रीलिङ्गमस्ति, बहुवचनरूपम् अस्ति वृक्षशाखाः.
उत्तमं, तावदेव. सुधीरः शिलाखण्डं क्षिपति. अत्र क्षिपति इति पदम् अत्र नूतनं पदं. क्षिपति क्षिपन्ति. अत्र भवती श्रुतवती वा क्षिपणि इति पदमस्ति?
क्षिपणि क्षिपणि
क्षिपणि इत्युक्ते किं वदतु?
क्षिपति इति ड्राप्. क्षिपणि इति रूपम् अहं चिन्तयामि. क्षिपणि इति ड्राप् एव भवति.
ड्राप् तदर्थमेव तस्य नाम क्षिपणि. क्षिपणि इति वदामः, परन्तु अत्र क्रियापदमस्ति क्षिपति. क्षिपति अस्ति, अपि च क्षिपते उभयपदी धातुः. क्षिपते अपि अस्ति, उभयपदी धातुः. परन्तु भवती श्रुतवती वा आक्षेपणम्? आक्षेपणम् इत्युक्ते किम्? कः वदति आक्षेपणम् इत्युक्ते? शोभा भगिनी वदतु.
कम्प्लेनिङ्ग्
अथवा भूम. आक्षेपणम् इत्युक्ते ब्लेमिङ्ग्.
ब्लेमिङ्ग्, ओके. ब्लेमिङ्ग् आक्षेपणं. हा हा, आक्षेपणं भावपदम् अस्ति वा भगिनि?
ल्युडन्तपदं.
ल्युडन्तपदम्.
अत्र वंशसुधा भगिनी भवती एव वदतु, तत्र किमर्थम् अत्र णत्वम् अस्ति?
कुत्र भवति
आक्षेपणम्?
आक्षेपणम् क्षकारे षकारः अस्ति. षकारः मध्ये पकारः अस्ति. अट्पुत्वां व्यायति. पकारः बाधकवर्णः नास्ति इति कारणेन णत्वं भवति.
उत्तमम्, उत्तमम्. इत्युक्ते अत्र आक्षेपणम् इत्यस्मिन् क्षे क्षे इति अस्ति, यथा भवती उक्तवती तदेव. इत्युक्ते अत्र क्ष इति वदामश्चेत् तत्र संयुक्ताक्षरमस्ति. अत्र क्षे क्ष इत्यस्मिन् ककारः अपि च षकारः अपि वर्णद्वयम् अस्ति तस्मिन्. तदर्थमेव षकारः निमित्तमस्ति, षकारं निमित्तमस्ति चेत् एकस्मिन् एव पदे षकारः वा रेफः वा अस्ति चेत् तत्र तदानीमेव पदे तत्र दन्तनकारः अस्ति चेत् साधारणतया निमित्तमस्ति इति कृत्वा तत्र णत्वं भवति. तदर्थमेव आक्षेपणम् अ उपसर्गपूर्वकः क्षेपणम् अत्र क्षिपति इति धातुः इगन्तधातुः भगिनि इगन्तधातुः इति कृत्वा अत्र गुणकार्यं भूत्वा क्षे भवति क्षेपणं तथा आगच्छति उत्तमम् अत्र क्षिपति क्षिपन्ति अग्रिमम् अत्र अग्रिमं किमस्ति अत्र यदि सः सुधीरः शिराखण्डं क्षिपति तदा वानराः किं कुर्वन्ति
वानराः फलानि क्षिपन्ति
फलानि क्षिपन्ति अत्र क्षिपति इति पदस्य लङ् रूपम् अक्षिपत् वयं जानीमः यथा अपठत् तथा एव अत्र अक्षिपत् इति रूपमस्ति अग्रे पठतु
सुधीरः उपायं करोति वानराः अनुकरणशीलाः इति सः जानाति सः स्वकीयं शिरस्त्रं भूमौ क्षिपति सर्वे अपि वानराः शिरस्त्राणि क्षिपन्ति सुधीरः सर्वाणि संकृष्टानि शीघ्रम् अन्यत्र गच्छति
अन्यत्र गच्छति सुधीरः उपायं करोति अत्र वानराः अनुकरणशीलाः अस्मिन् वाक्ये तयोर्मध्ये सम्बन्धः कः
वानराः अनुकरणशीलाः विशेषणं भवति वानराः विशेष्यं भवति
उत्तमं वानराः विशेष्यम् अनुकरणशीलाः विशेषणम् इति सः जानाति कः जानाति
सुधीरः जानाति
तदा सः किं करोति
स्वकीयं शिरस्त्रं भूमौ क्षिपति
अत्र भूमौ इति पदस्य विभक्तिः का
भूमौ इति सप्तमी विभक्तौ अस्ति खलु
प्रथमाविभक्तिरूपं किं
भूमि हरि शब्दवत्
प्रथमाविभक्तिरूपं किं
भूमिः
भूमिः उत्तमम् उत्तमं सुन्दरम् अनन्तरम् अत्र स्वकीयम् इति पदमस्ति अत्र भवती श्रुतवती वा अत्र स्वकीयम् इत्यस्मिन् त्वदीयं मदीयं भवदीयं भवदीया भारतीय एतानि पदानि वयं श्रुतवन्तः तथा एव अत्र स्वकीय इति अस्ति अत्र एकः प्रत्ययः अस्ति प्रत्ययं योजनेन तत्र भारत भारतीय त्वा त्वदीय मत् मदीय भवत् भवदीय अहम् ई पत्रे वदामि भवदीया लक्ष्मीः वदतु भगिनि प्रत्ययस्य नाम अहं सम्यक् न जानामि ईय इति अहं चिन्तयामि परन्तु अहं सम्यक् न जानामि अत्र तथा एव
द्वाविंशति प्रत्ययाः सन्ति न भगिनि
द्वाविंशतिः उपसर्गाः
उपसर्ग प्रत्ययः कति कति सन्ति भगिनि
बहवः सन्ति भगिनि
अहं कथं पठामि प्रत्ययविषये भगिनि गीताप्रवेशे प्रथमपुस्तके द्वितीयपुस्तके अस्ति भगिनि
अहं सम्यक् न जानामि परन्तु अत्र बहवः प्रत्ययाः सन्ति परन्तु द्वाविंशतिः उपसर्गाः
परन्तु भवती कदा पाठयति प्रत्ययविषये अहं पृच्छामि भगिनि
अहं न पाठयामि परन्तु अहमपि अत्र गीताप्रवेशस्य प्रथमभागे केचन प्रत्ययाः सन्ति यथा मधुप्रत्ययः अथवा तरत् तमप् प्रत्ययः तथा कानिचन केचन प्रत्ययाः सन्ति परन्तु अग्रे गत्वा अत्र स्वरूपमहोदयस्य वेब्सैट् मध्ये तत्र विवरणमस्ति अत्र अत्र स्वकीयम् अथवा तथा एव भारतीयं भवदीयं मदीयं त्वदीयम् अत्र रूपाणि आगच्छन्ति स्व इत्यस्मात् स्वकीय स्वकीयशिरस्त्रं भूमौ क्षिपति तदा किम् अभवत्
सर्वे अपि वानराः शिरस्त्राणि क्षिपन्ति
क्षिपन्ति वानराः क्षिपन्ति किं क्षिपन्ति शिरस्त्राणि क्षिपन्ति अत्र सुधीरः सर्वाणि सङ्गृह्णाति इति पदमस्ति. अत्र अत्र सम् उपसर्गपूर्वकः गृह्णाति इत्युक्ते सम् उपसर्गपूर्वकः गृहधातुः सङ्गृह्णाति. शीघ्रम् अन्यत्र गच्छति. किमर्थम् अन्यत्र गच्छति?
तत्र वानराः सन्ति. पुनरेकवारं पुनरेकवारं सर्वे अपि उद्घाटयन्ति इति कारणेन सुधीरः अन्यत्र गच्छति.
उत्तमम् उत्तमं भगिनि. धन्यवादः धन्यवादः
धन्यवादः.
अत्र गीताञ्जलिः भगिनी अपि अस्ति. भगिनी तदनन्तरं किं कर्तव्यं भवती वदतु. अत्र अभ्यासपुस्तकं पश्यतु. तत्र 11.3 भागे एकः अभ्यासः अस्ति. तम् अभ्यासं कुर्मः. भवती एव करोतु शीघ्रं.
नमस्कारः भगिनी. क्षम्यतां विलम्बेन आगतः.
अस्तु अस्तु.
कथायां स्थूलाक्षरैः दृश्यमानानि क्रियापदानि भूतकालरूपेण परिवर्तयतु.
परिवर्तयतु.
यथा अस्ति, आसीत्, गच्छति, गतवान्, क्रीणाति, क्रीतवान्, भवति, अभवत्.
अभवत्. इदानीं करोतु अग्रिमं पदं किम् इति पश्यतु. अपि च तस्य भूतकालरूपमपि वदतु.
पश्यति, दृष्टवान्.
अत्र भगिनि अत्र पुनः एकवारं कथां प्रति गच्छतु. पूर्वस्मिन् पुटे कथा आरब्धा.
अस्ति, आसीत्, गच्छति, गतवान्, क्रीणाति, क्रीतवान्, गच्छति, अस्ति, भवति, अभवत्, उपविशति, उपविष्टवान्, स्थापयति, स्थापयति, स्थापितवान्.
उत्तमम्.
करोति, कृतवान्. सन्ति, अभवन्.
उत्तमम्. आसन्. अभवन् अथवा आसन्. आसन् किमर्थं चेत् तत्र भूधातोः अभवन् परन्तु अस् धातोः रूपम् आसन्.
आं भगिनि. आगच्छति, आगतवान्.
उत्तमम्.
पश्यति, दृष्टवान्. उद्घाटयति, उद्घाटयति, उद्घाटितवान्.
उत्तमम्.
गृह्णाति, गृहीतवान्. धारयति, धारितवान्.
धृतवान्.
धृतवान्. क्षम्यतां भगिनि. धृतवान्. उपविशति, उपविष्टवान्. इच्छन्ति, इष्टवान्. आगच्छन्ति, आगतवान्. धारयन्ति, धारयन्ति, धृतवन्तः. उपविशन्ति, उपविशन् उपविष्टवन्तः.
उपविष्टवन्तः. उत्तमः.
भवति, अभवन्, अभवत्. पश्यति, नास्ति, नासन्,
नासीत्.
नासीत्. आं भगिनि, एकवचनं, नासीत्. नासीत्. पश्यति दर्शयति
पश्यति भगिनि अत्र पश्यति
पश्यति दृष्टवान् सन्ति सन्ति आसन् दर्शयति दर्शयितवान् दर्शितवान्
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 बहुवचने बहुवचने किं भवति
दर्शितवन्तः दर्शितवान् दर्शितवन्तौ दर्शितवन्तः क्षिपति क्षिपति
क्षिप्तवान्
क्षिप्तवान् क्षिप्तवान् क्षिप्तवन्ती क्षिप्तवन्तः
उत्तमं
करोति कृतवान् जानाति जानाति ज्ञातवान्
उत्तमं ज्ञातवान्
ज्ञातवान् ज्ञातवान् क्षिपति क्षिप्तवान् क्षिपन्ति क्षिप्तवन्तः सङ्ग्रहणाति सङ्गृहीतवान्
सङ्गृहीतवान् उत्तमं धन्यवादः भगिनी उत्तमरीत्या कृतवती भवती उत्तमं धन्यवादः भगिनी अनन्तरम् अत्र किञ्चिदेव समयः अस्ति अत्र उषा भगिनी भवती पठति वा तृतीयं करपत्रम् अत्र
आं भगिनि
पठतु
एतां कथां पठन्तु इस् कहानिको पडिये कश्चन व्याधः अस्ति सः अतीव दुष्टः निष्करुणः च एकदा सः वनं गच्छति तत्र जालं प्रसारयति एका कपोती जाले पतति व्याधः कपोतीं पञ्जरे स्थापयति अग्रे गच्छति च तदा वृष्टिः आरब्धा भीतः व्याधः आश्रयम् अन्विष्यति एकस्य महावृक्षस्य अधः आगच्छति सः वृक्षम् उद्दृश्य भोः अत्र यः वसति सम्प्रति शरणागतः अस्मि मां रक्षतु इति कथयति तत्र वृक्षे एकः कपोतः आसीत् कपोतः व्याधरस्य पञ्जरे स्थितां पत्नीं पश्यति तदा सा कपोती पतितम् उद्दृश्य वदति एषः व्याधः शीतार्थः क्षुधार्थः अस्माकं गृहम् आगतः अस्ति एतस्य सत्कारं करोतु इति
भगिनि अत्र किञ्चित् वदतु अत्र कथायाः विषये किञ्चित् भवती यद् अवगतवती तत् वदतु अत्र स्वस्य वाक्यैः
तस्मिन् दिने व्याधः अस्ति व्याधः इस् हण्टर् सः अतीव दृष्टः निष्करुणः अतीव लैक्
तस्मिन् दया नास्ति
तस्मिन् दया
निष्करुणः
च करुणा न अस्ति एकदा सः वनं गच्छति एकदा लैक् वन् सः वनं गच्छति तत्र जालं प्रसारयति जालं द्वितीयविभक्ति प्रसारयति उपसर्ग प्र एका कपोती जाले पतति एका कपोती कपोती स्त्रीलिङ्ग एका विशेषण जाले पतति, जाले सप्तमी विभक्ति, पतति
इत्युक्ते अत्र अत्र पत् धातुः अत्र पत् धातुः अकर्मकः अस्तु अनन्तरं पठतु.
व्याधः कपोतिं पञ्जरे स्थापयति. व्याधः कपोतिं द्वितीयविभक्ति कर्मपद पञ्जरे सप्तमी विभक्ति स्थापयति. अग्रे गच्छति च. तदा वृष्टिः आरब्धा. वृष्टि रेन् लैक् आरब्धा. भीतः व्याधः आश्रयम् अन्विष्यति. आश्रयं व्याधः आश्रयं
अन्विष्यति. अन्विष्यति एव, अन्वेषणं करोति
करोति. एकस्य महावृक्षस्य अधः आगच्छति. महावृक्षस्य पञ्चमी विभक्ति
षष्टि. षष्टि महावृक्षस्य
वृक्षस्य षष्टिविभक्ति अधः आगच्छति. सः वृक्षम् उद्दिश्य, सः वृक्षं द्वितीयविभक्ति उद्दिश्य लेप् उद्दिश्य
उत्तमम्. उद्दिश्य उद्दिश्य इति ल्यवन्तरूपम् अत्र उद्दिश्य इति अस्ति इति कृत्वा अत्र प्रति अथवा उद्दिश्य इति वदामश्चेत् अत्र ल्यवन्तरूपम् इति कृत्वा तत्र पूर्वं द्वितीयाविभक्त्यन्तरूपम् अस्ति. यदि वयं क्त्वान्तं वा ल्यबन्तं वा पदं योजयामश्चेत् साधारणतया अत्र ल्यबन्तरूपमपि कर्मपदं स्वीकरोति. तदर्थमेव वृक्षम् उद्दिश्य.
वृक्षम् उद्दिश्य भोः अत्र यः वसति. भोः सम्बोधनप्रथमविभक्ति. अत्र यः वसति तं प्रति शरणागतः अस्मि. तं द्वितीयविभक्ति. अस्मि उत्तमपुरुष. मा रक्ष, मां रक्षतु प्रेरणा. माम् अहम् आवां मां षष्टि न द्वितीयविभक्ति. मां रक्षतु इति कथयति.
मां रक्षतु इति कथयति व्याधः.
तत्र वृक्षे, तत्र वृक्षे सप्तमीविभक्ति एकः कपोतः आसीत्. कपोतः पुंलिङ्गः. एकः विशेषः आसीत् भूतकालः.
उत्तमं.
कपोतः व्याध व्याधस्य पञ्जरे स्थितां पत्नीं पश्यति. कपोतः व्याधस्य षष्टिविभक्ति पञ्जरे सप्तमीविभक्ति स्थितां स्थितः स्थितां
स्थिता प्रत्यय. परन्तु अत्र स्थितां पत्नीं,
स्थितां पत्नीम्
इत्युक्ते अत्र स्थित स्त्रीलिङ्गे उक्तमस्ति. स्थिता स्थिता पत्नी अथवा स्थितां पत्नीं.
स्थितां पत्नीं पश्यति. तदा सा कपोती पतिम् उद्दिश्य वदति. पतिम् उद्दिश्य वदति एषः व्याधः शीतार्थः क्षुधार्थः. शीतार्थः लैक् सफरिङ्ग् फ्रम् कोल्ड्.
क्षुधार्थः
अस्माकं गृहम् आगतः. अस्माकं षष्टिविभक्ति बहुवचन. गृहं द्वितीयविभक्ति आगतः अस्ति. एतस्य सत्कारं करोतु इति. सत्कारं करोतु प्रेरणा. एतस्य सत्कारं करोतु इति.
उत्तमम् उत्तमम् उत्तमरीत्या उक्तवती भगिनी, धन्यवादः. अनन्तरं भूमा भगिनी भवती पठतु अग्रिमम्.
पत्न्याः वचनं कपोतः अङ्गीकरोति. सः अङ्गारकम् आनयति. अग्निं ज्वालयति. व्याधं वदति भोः व्याध शीतबाधां दूरीकरोतु इति. अनन्तरं कपोतः चिन्तयति व्याधः क्षुधार्तः, तस्मै दातुं गृहे आहारः नास्ति, किं करोमि इति. कपोतः व्याधं वदति, अतिथिमहाशय, आहारं ददामि, कृपया स्वीकरोतु इति. ततः कपोतः व्याधस्य आहारार्थम् अग्निं प्रविशति. कपोतस्य त्यागं दृष्ट्वा व्याधः लज्जाम् अनुभवति, कपोतीं बन्धनात् मोचयति. कपोती अपि पतिविरहदुःखेन अग्निं प्रविशति. इत्थं कपोती कपोतयोः त्यागं दृष्ट्वा व्याधः दुःखेन अश्रूणि श्रावयति.
स्वस्य वाक्यैः वदतु भगिनि किञ्चित्.
पति कपोतः पत्न्या वचनं स्वीकरोति, अङ्गीकरोति, कृ दातु
त्यजतु भगिनि, अत्र विश्लेषणं मास्तु, परन्तु केवलं स्वस्य वैद्यः भवती यद् अवगतवती तद् वदतु.
सः अङ्गारकम् आनयति, अग्निम् आनयति.
उत्तमम्.
अग्निं ज्वालयति, व्याधं वदति, भोः व्याध शीतबाधां दूरीकरोतु. अग्न्या स्वस्य शीतबाधां बाधां दूरीकरोतु. अनन्तरं कपोतः चिन्तयति, व्याधः क्षुधार्तः, क्षुधाय पीडितः, तस्मै दातुं गृहे आहारः नास्ति.
अत्र भगिनि क्षुधया
क्षुधया क्षुधया
किमर्थं चेत् क्षुधा इति आकारान्तपदं, तृतीयरूपं क्षुधया
क्षुधया.
उत्तमं.
तस्मै दातुं गृहे आहारः नास्ति, किं करोमि इति चिन्तयित्वा कपोतः व्याधं वदति, अतिथिमहाशय, अतिथिसत्कारं कर्तुम् इच्छति. पत्न्याः वचनम् अङ्गीकृत्वा आहारं ददामि, कृपया स्वीकरोतु. कपोतस्य
भगिनि अत्र भगिनी अत्र अङ्गीकृत्य
अङ्गीकृत्य
वदतु,
पत्न्याः वचनम् अङ्गीकृत्य सः अतिथिसत्कारं कर्तुम् इच्छति. ततः कपोतः व्याधस्य आहारार्थम् अग्निं प्रविशति. स्वशरीरत्यागं करोति.
उत्तमम्.
कपोतस्य त्यागं दृष्ट्वा व्याधः लज्जाम् अनुभवति. लज्जा भवति,
लज्जितवान्
भूतवान्
लज्जितवान्
कपोतीं बन्धनात् मोचयति. पत्नीं कपोतीं मोचयति. कपोती अपि पतिविरहदुःखेन अग्निं प्रविशति, सा अपि अग्निं प्रविशति. इत्थं कपोती कपोतयोः त्यागं दृष्ट्वा व्याधः दुःखेन अश्रूणि श्रावयति.
अत्र इत्थम् इत्थम् इति पदमस्ति, इत्युक्ते किम्?
इत्थं लैक् दिस् लैक् वैस्
उत्तमम् इत्युक्ते एतादृशरीत्या
एतादृश एतादृश
उत्तमम्
कपोतयोः
त्यागं दृष्ट्वा व्याधः दुःखेन अश्रूणि श्रावयति. कदा वदतु भगिनि?
अश्रुपूर्णः भवति
भवति. उत्तमम् उत्तमं भगिनि, धन्यवादः. सर्वे गृहपाठरूपेण तत्र चतुर्थं करपत्रमस्ति, चतुर्थे करपत्रे तत्र भूतकालरूपाणि लेखनीयानि. सर्वे गृहपाठरूपेण चतुर्थं करपत्रं पूरयन्तु. अधुना अत्र स्थगयाम, पुनः एकवारम् अग्रिमे सप्ताहे मिलामः.
धन्यवादः.
भगिनी एकः प्रश्नः अस्ति, एकः प्रश्नः, आरब्धा इति धातु किं भगिनि? आरब्धा
अत्र आ उपसर्गपूर्वकः रभ् धातुः.
रभ् धातुः रूपं रूपं किम् आरब्धा इति रूपं किं भगिनि?
शान्तरूपं.
शान्तरूपम्
तदर्थमेव अत्र तदर्थमेव अत्र आरब् त्रिषु लिङ्गेषु भवति रूपाणि भवन्ति इत्युक्ते आरब्धम् आरब्धा आरब्धः.
ओ आरब्धः. अनन्तरम् इत्थम् इति एकं पदमस्ति, सन्धिकार्यमेव अस्ति खलु इत्थम्?
इत्थम् इत्थम् इति पदम्
इति अतः अस्ति वा भगिनि? इति यथा अथा देवी कवचम् इति अथ अस्ति वा?
इत्थम् इत्थम् इति पदं मम कृते अपि
एकं पदम् अस्ति, अहं न जानामि.
अहमपि दृष्ट्वा वदामि भगिनि. सम्यक् न.
अन्ये एकः प्रश्नः, कपति कपत कपोतयोः कपति इति पदं
कपोति
तत्र मुद्रणदोषः अस्ति. कपोति कपोति कपोतयोः
द्विवचनरूपमस्ति.
अत्र मुच् मुच् धातुतः मोचयति इति रूपम् आगच्छति. मुच् धातुतः एव मुक्तः मुक्तिः. वयं जानीमः मुक्ति मुक्ति अथवा मुक्तः इति विमुक्तिः इति पदानि आगतानि. अत्र धातुः अस्ति मुच् धातुः. मुच् धातुतः मोचयति इति नीजन्तरूपम्. मुक्तः मुक्तवान् यथा उक्तः उक्तवान् तथा एव मुक्तः मुक्तवान् तथा रूपाणि भवन्ति. अत्र मुक्तिः इत्यपि अत्र प्रत्ययः भिन्नप्रत्ययः मुक्तिः इत्यस्मिन् पदे. अत्र स्थगयेम, अग्रिमसप्ताहे मिलामः.
धन्यवादः.